ये आकाशवाणी दिल्ली है, प्रस्तुत है माननीय प्रधानमंत्री श्री नरेंद्र मोदी के मन की बात का संस्कृत अनुवाद।
मम प्रियाः देशवासिनः नमस्कारः। अद्य अशेष देशः रक्षाबंधन पर्व आयोजयति। अस्मिन् पावन पर्वणि सर्वेभ्योपि देशवासिभ्यः भूरिशो मंगल कामनाः। रक्षाबंधन पर्व नाम भगिनी भ्रात्रोः पारस्परिकं प्रेम्णः विश्वासस्य प्रतीकरूपं। पर्वेदं सहस्राब्देभ्यः सामाजिक सौहार्दस्य बृहद् उदाहरणत्वेनापि प्रवर्तते। देशस्य इतिहासः अनेकाभिः तादृशीभिः कथाभिः संभरितोस्ति यस्यां हि एकेनैव रक्षासूत्रेण पृथक् पृथक् राज्यद्वयस्य वा धर्मद्वयस्य जनाः विश्वाससूत्रेण संयुक्तीकृताः। सद्यः कतिपय दिनानन्तरं जन्माष्टमी पर्व अपि आगन्तास्ति। अशेष परिवेशः हाथी घोड़ा पालकी जय कन्हैया लाल की गोविंदा गोविंदा इति जय घोषैः गुंजायमानो भविता। भगवतः कृष्णस्य रंगेण रंजितानां समुल्लास संदोहवतां सहजानन्दः किञ्चित् पृथगेव भवति। देशस्य अनेकेषु कोणेषु विशेषेण च महाराष्ट्रे दही हांडी इति दधिघटानां सज्जतां क्रियमाणाः अस्मदीयाः युवानो भवेयुः। सर्वेषामपि देशवासीनां कृते रक्षाबंधन जन्माष्टमी पर्वणोः हार्दिक्यः शुभकामनाः।
प्रधानमंत्री महोदय नमस्काराः। अहं चिन्मयी, बेंगलुरुनगरे विजयभारती विद्यालये दशमकक्षायां पठामि। महोदय, अद्य संस्कृतदिनम् अस्ति। संस्कृतभाषा सरला इति सर्वे वदन्ति। संस्कृतभाषया वयं बहवः अत्र सम्भाषणम् अपि कुर्मः, अतः संस्कृतस्य महत्त्वविषये भवतः कः अभिप्रायः इति कृपया वदतु।
भगिनी चिन्मयी, भवती संस्कृतेन प्रश्नं पृष्टवती, बहु उत्तमं बहु उत्तमम्। अहं भवत्याः अभिनन्दनं करोमि। संस्कृत सप्ताहस्य निमित्तं देशवासिनां सर्वेषां कृते मम हार्दिक शुभकामनाः।
अहं चिन्मयी दुहितुः सुबहु कार्तज्ञमावहामि यत् सा विषयमेनम् उत्थापितवती। सखायः रक्षाबन्धनमतिरिच्य श्रावण पूर्णिमावसरे संस्कृत दिनमपि आयोज्यते। अहं तान् सर्वानपि अभिनन्दामि ये हि अस्य महतः रिक्थस्य संरक्षण संवर्धनयोः निरताः सन्तः जनसामान्य पर्यन्तम् एतं प्रापयितुं संलग्नाः सन्ति। प्रत्येकमपि भाषायाः नैजं महात्म्यं भवति। तमिळ भाषा विश्वस्य प्राचीनतमा भाषा इति कृत्वा भारतं गौरवम् अनुभवति। अपि च वयं सर्वेपि भारतीयाः विषयमेनम् अनुभूय गौरवम् अनुभवामः यत् वेदकालाद् आरभ्य वर्तमानकाल पर्यन्तं संस्कृतभाषा अपि ज्ञानस्य प्रचार प्रसारयोः अतितरां महतीं भूमिकां निरवहत्। जीवनस्य प्रत्येकमपि क्षेत्र सम्बद्धं ज्ञान भाण्डारं संस्कृतभाषायाम् अस्याश्च साहित्ये विराजते। भवतु नाम तद्विज्ञानं वा तन्त्रज्ञानं, कृषिः वा स्वास्थ्यं, खगोलशास्त्रम् आहोस्वित् वास्तुशास्त्रं, गणितं वा प्रबन्धनम्, अर्थशास्त्रं वा पर्यावरणविषयः। एवम् उच्यते यत् ग्लोबल् वार्मिङ्ग् इति जागतोष्णताया समाह्वानानि निराकर्तुमपि तद्विषयकाः मन्त्राः अस्माकं वेदेषु सविस्तरं समुल्लिखिताः सन्ति। वृत्तमिदं ज्ञात्वा भवन्तः सर्वे आनन्दसन्दोहम् अनुभविष्यन्ति यत् कर्णाटकराज्ये शिमोगा जनपदे मच्चूर ग्रामवासिनः अद्यापि सम्भाषणार्थं संस्कृतभाषायाः प्रयोगं कुर्वन्ति। इदं ज्ञात्वा भवन्तः आश्चर्यम् अनुभविष्यन्ति यत् संस्कृतं नाम तादृशी काचिद् अनन्यतमा भाषा अस्ति यस्याम् अनन्तशब्दानां निर्मितिः शक्या अस्ति। धातूनां 2000, 200 सफिक्स इति प्रत्ययाः, 22 प्रिफिक्स इति उपसर्गाः, समासवैविध्यम् एतेभ्यः शब्दानाम् असंख्यं विरचयितुं शक्यते, तथा च सूक्ष्मतमान् भावान् विषयान् विचारांच समीचीनतया वर्णयितुं शक्यते। एतदतिरिच्य संस्कृतभाषायाः अपरापि एका अनन्यतमा विशेषता वर्तते, अद्यापि वयं स्वीयं वक्तव्यं सबलम् उपस्थापयितुम् आङ्ग्लभाषायाः उद्धरणानि युञ्जामहे। कदाचित् कवितानाम् अंशानां गद्यपद्यखण्डानां वा उपयोगं कुर्मः, परं च ये जनाः संस्कृतसुभाषितैः परिचिताः सन्ति ते जानन्ति यत् अतितरां न्यूनशब्दैः सुयुक्तियुक्तं वक्तव्यं संस्कृतसुभाषितैः कर्तुं पार्यते, तथा च एतत् सर्वम् अस्मदीयाभिः परम्पराभिः अस्माकं भूम्या च संयुक्तमिति कृत्वा सरलतया अवगन्तुमपि शक्यते। यथा जीवने गुरोः महत्त्वं बोधयितुं निगदितम् एकमपि अक्षरमस्तु गुरुः शिष्यं प्रबोधयेत्, पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा यन्द्रिणी भवेत्। अर्थात् कश्चन गुरुः स्वीयं शिष्यम् एकमपि अक्षरम् अध्यापयति, तदर्थं सम्पूर्णायामपि पृथिव्यां तादृशं किमपि वस्तु वा धनं नास्ति यद् गुरवे दत्त्वा शिष्यः निजगुरोः ऋणभारं निस्तारयितुं शक्नोति। आगामिनं शिक्षकदिवसम् एतादृशैः भावैः सह वयम् आयोजयेम। ज्ञानं गुरुश्च अतुल्यौ अमूल्यौ अनुपमौ च, जननीम् अतिरिच्य शिक्षकाः एव भवन्ति ये हि बालकानां विचारान् समुचित दिशि प्रगन्तुं तद्दायित्वमावहन्ति, तथा च जीवने तस्य सर्वाधिकः प्रभावोऽपि द्रष्टुं शक्यते। शिक्षकदिवसावसरे महान्तं चिन्तकं देशस्य राष्ट्रपतिचरं भारतरत्नं डॉक्टर सर्वपल्ली राधाकृष्णन्वर्यं वयं सर्वदेव स्मरामः। अशेष देशः तस्य जन्मदिवसं शिक्षकदिवसरूपेण आयोजयति। आगामि शिक्षक दिवसम् उपलक्ष्य अहम् देशस्य सर्वेभ्योऽपि शिक्षकेभ्यः शुभकामनाः व्याहरामि। युगपदेव शिक्षा विज्ञान छात्रान् प्रति भवताम् यः समर्पण भावोऽस्ति तम् अभिनन्दामि। मम प्रियाः देशवासिनः, कठिन परिश्रम निरतानाम् अस्माकम् कृषकाणाम् कृते प्रावृट्कालः नवीनाः आशाः आदाय आगच्छति। भीषणेन घर्मातपेन म्लानान् पादपान् वृक्षान् शुष्कान् जलाशयाञ्च प्रावृट्कालः सुखयति, परञ्च कदाचित्तु एषा अतिवृष्टिः विनाशकारिणं जलपूरमपि आनयति। प्रकृतिरेषा तादृशं व्यवहरति यत् कुत्रचित् अन्यस्थानापेक्षया समधिका वृष्टिः जाता। सद्यः वयं दृष्टवन्तः केरले भीषण जलपूरेण जनजीवनम् अतितरां दुष्प्रभावितम्। सम्प्रति एतासु कठिन परिस्थितिषु सम्पूर्णोऽपि देशः केरलेन संवर्तते। अस्मदीयाः संवेदनाः तैः कुटुम्बैः साकं वर्तन्ते ये हि निजात्मीयान् निहतान् प्रणष्टान् प्रप्लावितान् च दृष्टवन्तः। जीवनस्य या क्षतिः सञ्जाता सा तु पूरयितुं नैव शक्यते, परं च अहम् शोक संतप्त परिवारान् विश्वासयितुं वांछामि यत् सपाद शतकोटि भारतीयाः अस्मिन् दुःखदग्धे क्षणे भवद्भिः सम्भूय स्थिताः सन्ति। प्रार्थयामि यत् प्राकृतिकापदायाम् अस्यां ये जनाः आहताः ते सत्वरं स्वस्थाः भवेयुः। पूर्णतया विश्वसिमि यत् राज्यवासिनां भावानां अदम्य साहसस्य चाधारेण केरलम् अतिशीघ्रं पुनः उत्थास्यति। आपदाः विनाशलीलां विस्तारयन्ति इति तु दुर्भाग्यपूर्णम्, परं च आपत्काले मानवतायाः अपि दर्शनं कर्तुं शक्यते। कच्छतः कामरूपं यावत् कश्मीरतः कन्याकुमारी पर्यन्तं प्रत्येकमपि जनः निज निज क्षमतानुसारं किञ्चित् किञ्चित् करोत्येव, येन यत्रापि आपत् समापतिता भवतु नाम तत् केरलम् आहोस्वित् हिन्दुस्थानस्य कश्चन अपि जनपदः किञ्चित् क्षेत्रं वा जनजीवनं पुनः सामान्यत्वेन प्रवर्तेत। सर्वेपि आयुः वर्गीयाः प्रत्येकमपि कार्यक्षेत्रेण सम्बद्धाः जनाः स्वं स्वं योगदानं कुर्वन्ति। प्रत्येकमपि सुनिश्चेतुं प्रयतते केरलस्य जनानां कष्टानि सुतरां न्यूनी भवेयुः, तेषां दुःखानि वयं संविभज्येरन्। वयं सर्वे जानीमः यत् सशस्त्र बलानां भटाः केरल साहाय्य कार्याणां नायकाः सन्ति। जलपुरा प्लावितान् संरक्षितुं ते सर्वात्मना प्रयतन्ते। भवतु नाम सा वायुसेना वा नौसेना, आहोस्वित स्थलसेना, बीएसएफ, सीआईएसएफ, आरएएफ इति प्रत्येकमपि सुरक्षा साहाय्य कार्येषु महतीं भूमिकां निरवहत्। विशेषेण अहम् एनडीआरएफ इति राष्ट्रीय आपदा प्रबंधन बलस्य वीराणां भटानां कठिन परिश्रमं उल्लेखयितुं वांछामि। संकट क्षणे अस्मिन् ते बहुत्तमं आचरितवन्तः। एनडीआरएफ इति राष्ट्रीय आपदा प्रबंधन बलस्य क्षमतां, प्रतिबद्धतां, त्वरित निर्णयं कृत्वा परिस्थिति संभालनस्य च प्रयासं च विभाव्य प्रत्येकमपि हिंदुस्थानीयः अस्मै बलाय नूतनतया श्रद्धावनतः वर्तते। यः ओणम पर्व आसीत्, ओणम पर्व देशाय विशेषेण च केरलाय समधिक शक्तिप्रदं स्यादिति वयं प्रार्थयामः, येन एतत् शीघ्रातिशीघ्रं आपदातो विमुक्तं स्यात् तथा च केरल विकास यात्रा समधिकं जवीयसी भवेत्। पुनरेकवारं सर्वेषामपि देशवासिनां पक्षतः अहम् केरल वास्तव्यानां देशस्य अन्यस्थलेषु यत्र यत्र आपदा कष्टानि समापतितानि तत्रत्यान् विश्वासयितुं वाञ्छामि यत् सम्प्रति एतासु कठिन परिस्थितिषु सम्पूर्णोऽपि देशः तैः सम्भूय वर्तते। मम प्रियाः देशवासिनः, क्रमेऽस्मिन् यदा मन की बात प्रसारणस्य कृते सम्प्राप्तान् परामर्शान् अवलोकयन् आसम् तदा सम्पूर्णस्यापि देशस्य जनाः यं विषयम् अवलम्ब्य अधिकतरम् अलिखन् स विषयोऽस्ति अस्माकं सर्वेषां प्रीतिभाग् श्रीमान् अटल बिहारी वाजपेयी। गाजियाबादतः कीर्तिः, सोनीपततः स्वाति वत्सः, केरलतः भाई प्रवीणः, पश्चिम बंगालतः डॉक्टर स्वप्न बैनर्जी, बिहारस्य कटिहारतः अखिलेश पांडे, न जाने कियन्तो जनाः नरेंद्र मोदी मोबाइल ऐप माई गोव चित्यत्र लिखित्वा माम अटल महोदयस्य जीवनस्य विभिन्नान् पक्षान् आदृत्य किमपि भाषितुं साग्रहम् अकथयन्। मासेस्मिन् षोडशे दिनांके यथैव जनाः अशेष जगच्च अटल महोदयस्य निधनवृत्तं श्रुतवन्तः शोक सागरे निमग्नाः अभूवन्। तादृशः अनन्यतमः राष्ट्रनेता यो हि चतुर्दश वर्षेभ्यः प्राक् प्रधानमंत्री पदम् अत्यजत्। वस्तुतस्तु विगतेभ्यः दश वर्षेभ्यः असौ सक्रिय राजनीतितः विच्छिन्नः एव आसीत्। वार्तासु कुत्रचिदपि नैवावलोक्यते स्म, सार्वजनिकं च नैव दृश्यते स्म। दश वर्षावधिकं कालः नितरां दीर्घतमो भवति, किन्तु मासेस्मिन् षोडश दिनांकानन्तरं देशः संसारश्च अवालोकयतां यत् हिन्दुस्थानस्य सामान्य जनानां मनस्सु दश वर्षावधिकः कालखण्डः क्षणस्यापि अन्तरालं नैवाजनयत्। अटल वर्यस्य कृते यादृशः स्नेहः, यादृशी श्रद्धा, यावान् शोकश्च प्रादुरभवन्, एतत् सर्वं तस्य विशाल व्यक्तित्वं प्रदर्शयति। विगतेषु कतिपय दिनेषु अटल महोदयस्य व्यक्तित्वस्य उत्तमोत्तमाः पक्षाः राष्ट्रस्य समक्षम् उपस्थापिताः जाताः। जनाः तम् उत्तम सांसद, संवेदनशील लेखक, श्रेष्ठ वक्त्री, लोकप्रिय प्रधानमंत्री रूपेण स्मृतवन्तः, स्मरन्ति च। गुड गवर्नेंस अर्थात् सुशासनं मुख्यधारया संयोजयितुं देशोयं सर्वदेव अटलवर्यस्य कृतज्ञतां आवक्षति। तथा च अद्याहं अटलमहोदयस्य विशाल व्यक्तित्वस्य अपरमेकं पक्षं स्प्रष्टुं समीहे। अटलमहोदयेन भारताय या राजनीतिक संस्कृतिः प्रदत्ता, राजनीतिक संस्कृतौ यत् परिवर्तनमापादयितुं यो हि प्रयासः कृतः, एनां च व्यवस्था प्रारूपे आकारयितुं यत् प्रयतितं च, तस्माच्च कारणात् भारतं बहु लाभान्वितं जातम्। अनागते कालेपि बहवो लाभाः भवितारः, एतदपि सुनिश्चितम्। एतत् शताब्दस्य तृतीय वर्षे अभ्युपगतस्य एकनवतितमस्य संशोधन अधिनियमस्य कृते भारतं सर्वदेव अटल महोदयस्य कृतज्ञं स्थास्यति। अमुना परिवर्तनेन भारतस्य राजनीतौ महत्वपूर्ण परिवर्तनद्वयं जातम्। प्रथमं तु राज्येषु मन्त्रिमण्डलस्य आकारः आहत्य विधानसभा स्थानानां प्रतिशतं 15 सीमितो विहितः। द्वितीयं च परिवर्तनं तत् यत् दल परिवर्तन रोधि विधेः अन्तर्गतं निर्धारित सीमानं प्रतिशतं 33 वर्धयित्वा प्रतिशतं 66 मिता विहिता। अनेन सहैव दल परिवर्तकान् अयोग्यान् निर्णेतुं स्पष्टाः निर्देशाः अपि निर्धारिताः। अनेकेभ्यः वर्षेभ्यः बृहदाकार युतानां मन्त्रिमण्डलानां संरचनायाः राजनीतिक संस्कृतिः राजनेतॄणां तोषार्थमेव प्रसृतासीत्। अटल महोदयः तां परिवर्तितवान्। तस्यामुना समुपायेन वित्तस्य संसाधनानां च संचयो जातः। युगपदेव च कार्यक्षमतापि समेधिता। अयमासीत् अटल वर्य सदृशो दीर्घदृष्टा येन स्थितिः परिवर्तिता। अस्मदीयायां च राजनीतिक संस्कृतौ निर्मलाः परम्पराः समेधिताः। अटल वर्यः परमार्थेन देशभक्तः आसीत्। तस्य कार्यकाले एव महा आयव्यय पत्रकस्य संसदि उपस्थापनस्य कालः परिवर्तितः। पूर्वम् आङ्ग्ल परम्परानुसारं सायं 5 महायव्यय पत्रकं संसदि उपस्थाप्यते स्म। परं च 1900 वर्षे अटल वर्यः एनं परिवर्त्य प्रातः 11 कृतवान्। अपरमेकं स्वातन्त्र्यम् अटल वर्यस्य कार्यकाले एव लब्धम्। इंडियन फ्लैग कोड, भारतीय ध्वज संहिता तथा च द्युत्तर 2000 वर्षात् एषा अधिकारिता। अस्याम् तादृशाः केचन नियमाः समावेशिता येन त्रिवार्णिकोऽयं ध्वजः सार्वजनिक स्थलेषु अपि साम्प्रतम् उत्तोलयितुं शक्यते। अमुना एव परिष्कारेण अधिकाधिकाः भारतीयाः स्वयं राष्ट्रध्वजम् उत्तोलयितुम् अवसरमवाप्नुवन्। एवं हि असौ अस्मदीयं प्राणप्रियं त्रिवारणिकं ध्वजं जनसामान्यस्य सुगमत्व कोटिमानयत्। भवन्तो दृष्टवन्तः अटल महोदयः देशे भवतु नाम निर्वाचन प्रक्रिया तथा चैषा जनप्रतिनिधि सम्बद्धा वा भवेत्, अत्र ये विकाराः समापन्नाः आसन् ते साहसिकोपाय प्रवर्तन पुरस्सरं आधारस्तरेण परिष्कृताः। एवं रीत्या अद्यत्वे भवन्तः अवलोकयन्ति यत् देशे युगपदेव केन्द्रस्य राज्यानां च निर्वाचनानुष्ठान विषयिणी चर्चा संप्रवर्तते। विषयेऽस्मिन् पक्ष विपक्षौ स्वस्वाभिमतं स्थापयतः। एषा अस्ति शुभावार्ता, लोकतन्त्रस्य च कृते शुभ संकेत रूपा च। नूनमहं कथयिष्यामि यत् स्वस्थस्य उत्तमस्य च लोकतन्त्रस्य कृते समुचितानां परम्पराणां विकासः लोकतन्त्रं दृढतरं विधातुं सततं प्रयासानुष्ठानं निराग्रहं चर्चा प्रवर्तनं चेत्यादि सर्वं अटल महोदयस्य कृते उत्तम श्रद्धाञ्जलि रूपं भविष्यति। समृद्धस्य विकसितस्य च भारतस्य तस्य स्वप्नं पूर्णतां नेतुं तद्विषयकं संकल्पं पुनः उदीरयन्नहम् अस्माकं सर्वेषामपि पक्षतः अटल महाभागाय श्रद्धाञ्जलिमर्पयामि। मम प्रियाः देशवासिनः, संसदः चर्चा अद्यत्वे यदा प्रवर्तते तदा प्रायेण अवरोधः, कोलाहलः, गतिरोधश्च विषयेऽस्मिन् चर्च्यन्ते। परं च यदि किञ्चित् भद्रं भवति तदा तस्य चर्चा तावती नैव जायते। नातिचिरं संसदः प्रावृत्कालिकं सत्रम् अवसितम्। वृत्तमिदं ज्ञात्वा भवन्तः प्रसन्नतामनुभविष्यन्ति यल्लोकसभायाः कार्योत्पादकतां प्रतिशतम् 18.1% राज्यसभायाश्च प्रतिशतम् 74% जाता। दलहितानि अभिगणय्य सर्वेऽपि सांसदाः संसदः प्रावृत्कालिकं सत्रम् अधिकतरं समुपयोक्तुं प्रयतितवन्तः। एतस्मादेव कारणात् लोकसभा 21 विधेयकानि, राज्यसभा च 14 अभ्युपगन्तुम् अपारयताम्। संसदः प्रावृत्कालिकम् इदं सत्रं सामाजिक न्यायस्य, यूनां कल्याणस्य च सत्ररूपेण सर्वदेव स्मरिष्यते। सत्रेऽस्मिन् यूनां पश्चवर्तिनां च समुदायानां कृते लाभप्रापणार्थं तत्सम्बद्धानि महत्वपूर्णानि विधेयकानि अभ्युपगतानि। भवन्तः सर्वे जानन्त्येव यत् विगतानैकदशाब्देभ्यः अनुसूचित जाति जनजात्यायोगस्य तुल्यमेव इतर पश्चवर्ति वर्गायोगस्य संरचनाभियाचनं प्रवर्तते स्म। पश्चवर्ति वर्गाणाम् अधिकारान् सुनिश्चेतुं देशेन ऐषमः क्रमे इतर पश्चवर्ति वर्गायोगस्य संरचनायाः संकल्प पूर्तिः विहिता, तदर्थं च अस्मै सांविधानिकाधिकारोऽपि प्रदत्तः। अनुसूचित जाति जनजात्यधिकारान् सुरक्षितुं संशोधन विधेयकस्य अभ्युपगमनमपि सत्रेस्मिन् संजातम्। अमुना विधिना अनुसूचित जाति जनजातीयानां हितानि व्यापकतया सुरक्षितानि भवितारः। सममेव विधिरयम् अत्याचरणात् अपराधिनो निवारयिष्यति, दलित समुदायेषु च विश्वास मुत्पादयिष्यति। देशस्य नारी शक्तिं विरुध्य न कश्चन अपि सभ्य समाजः कथंकारमपि अन्यायं सोढुं पारयति। बलात्कार दोषिणः सोढुं देशः न मनागपि सन्नद्धः। अतः संसदा आपराधिक विधि संशोधन विधेयकम् अभ्युपगम्य कठोरतम दण्डः प्रावधत्तः। दुष्कर्मणः दोषिणः न्यूनान्यूनं 10 वर्षात्मक दण्डेन दण्डयिष्यन्ते, तथा च 12 वर्षेभ्यो न्यूनायुष्मतीषु बालिकासु बलात्कारिणः मृत्युना दण्डयिष्यन्ते। कतिपयेभ्यो दिनेभ्यः प्राक् भवन्तो वार्तापत्रेषु पठितवन्तः स्युः यत् मध्यप्रदेशे मन्दसौरे अन्यतमेन न्यायालयेन केवलं मासद्वयावधौ एव वादश्रवणानन्तरम् अवयस्क बालिकायां बलादाचरणस्य दोषिद्वयं मृत्युना दण्डितम्। एतत् पूर्वं मध्यप्रदेशे कटनी नगरे एकेन न्यायालयेन केवलं दिवसपञ्चके वादश्रवणं कृत्वा दोषिणो मृत्युना दण्डिताः। राजस्थानेपि तत्रत्य न्यायालयैः एतादृशाः त्वरित निर्णयाः विहिताः। अयं विधिः महिलाः बालिकाश्च विरुध्य विधीयमानानि अपराध प्रकरणानि अवरोद्धुं प्रभाविनीं भूमिकां निर्वक्षति। सामाजिक परिवर्तनं विना आर्थिक प्रगतिः अपूर्णा एवास्ति। लोकसभायां ट्रिपल तलाक इति विवाह विच्छेदक विधेयकम् अभ्युपगतम्, यद्यपि राज्यसभायाः ऐषमः सत्रे नैतत् शक्यमजायत। अहं मुस्लिम महिलाः विश्वासयामि यत् कृष्णोऽपि देशः ताभ्यो न्यायं प्रदापयितुं पूर्ण शक्त्या सन्नद्धोऽस्ति। यदा वयं देशहितार्थम् अग्रेसरामः तदा निर्धनानां पश्चवर्तिनां शोषितानां वञ्चितानां च जीवनानि परिवर्तयितुं शक्यन्ते। प्रावृत्कालिक सत्रे क्रमेऽस्मिन् सर्वेऽपि सम्भूय आदर्शमेकं प्रस्तुतवन्तः। अहं देशस्य सर्वानपि सांसदान् सार्वजनिकरूपेण अद्य हार्दिकान् साधुवादान् व्याहरामि। मम प्रियाः देशवासिनः, एतेषु दिनेषु कोटि कोटि देशवासिनः जकार्ता नगर्यां सम्पद्यमानाः एशियन क्रीडा स्पर्धा विषये दत्तावधानाः सन्ति। प्रतिदिनं प्रातः जनाः सर्वप्रथमं वार्तापत्राणि वा दृश्यवाहिनीः वा सामाजिक संचार माध्यमानि सोत्सुकं दृष्ट्वा अवगन्तुं प्रयतन्ते यत् केन कया वा भारतीय क्रीडकेन क्रीडिकया वा पदकं विजितम्। एशियन क्रीडा स्पर्धाः साम्प्रतमपि प्रवर्तन्ते। देशस्य कृते पदक विजेतॄन् सर्वानपि क्रीडकान् अभिनन्दामि। तेभ्योऽपि क्रीडकेभ्यः मम भूरिशो शुभकामनाः। येषां यासां च स्पर्धाः साम्प्रतमपि अवशिष्टाः सन्ति। भारतस्य क्रीडकाः विशेषेण शूटिंग रेसलिंग इति लक्षवेद मल्ल स्पर्धासु तु उत्कृष्ट प्रदर्शनं कुर्वन्तेव, परं च अस्माकीनाः क्रीडकाः क्रीडिकाश्च तास्वपि स्पर्धासु पदकानि अधिगच्छन्ति यासु पूर्वं अस्माकं प्रदर्शनं तादृक् समीचीनं नासीत्। एतानि न केवलं पदकानि अपि तु भारतीय क्रीडानां क्रीडकानां क्रीडिकानां च नभस्पर्शी समुत्साहस्य स्वप्नानां च प्रमाणमस्ति। देशस्य कृते पदक विजेतृषु अस्माकिनाः पुत्र्यः अपि सन्ति इति नूनं भूयान् सकारात्मक संकेतः। पदक विजेतृषु न्यूनायुष्मन्तो युवानः तथा च एतेषु अधिसंख्यं लघु लघु ग्राम जनपद वास्तव्या चेति परिभाव्य ममुद्यते अस्माकिनं मानसम्। मासेऽस्मिन् 29 दिनांके वयं राष्ट्रिय क्रीडा दिवसम् आयोजयिष्यामः। शुभेऽस्मिन् अवसरे अहं सर्वेभ्योऽपि क्रीडा प्रेमिभ्यः शुभकामनाः निवेदयामि। युगपदेव हॉकी क्रीडायाः महते क्रीडकाय श्री ध्यानचन्द वर्याय स्वीयं श्रद्धाञ्जलिम् अर्पयामि। अहं देशस्य सर्वानपि नागरिकान् निवेदयामि यत् ते अवश्यं क्रीडन्तु तथा च स्वीय सुस्वास्थ्यस्य कृते विशेषेण अवधानं दद्युः, यतोहि स्वस्थं भारतमेव सम्पन्नं समृद्धं च भारतं निर्मास्यति। यदा भारतं स्वस्थं भवति तदेव उज्ज्वल भविष्यतः निर्माणं भविता। पुनरेकवारं एशियन क्रीडा स्पर्धालून् पदक विजेतॄन् अभिनन्दामि, शेष क्रीडकानां उत्कृष्ट प्रदर्शनं च कामये। सर्वेभ्योऽपि राष्ट्रिय खेल दिवसस्य कोटिशः शुभकामनाः।
प्रधानमंत्री जी नमस्कार, मैं कानपुर से भावना त्रिपाठी एक इंजीनियरिंग की छात्रा बात कर रही हूँ। प्रधानमंत्री
महोदय नमस्कार, अहम कानपुरतः भावना त्रिपाठी अभियांत्रिक्याः छात्रास्मि। प्रधानमंत्री महोदय, विगते मन की बात प्रसारणे भवान महाविद्यालयीयैः छात्रैः छात्राभिः च समभाषत, तत्पूर्वमपि चिकित्सकैः लेखा परीक्षकैश्च साकं भवान समभाषत। मम एका प्रार्थना अस्ति यत् आगामिनि सेप्टेम्बर मासे 15 दिने अभियांत्रिकी दिवसोऽस्ति, तदुपलक्ष्य भवान यदि अस्माभिः अभियांत्रिकी छात्रैः छात्राभिश्च साकं संभाषणं करोतु, येन अस्मदीयं मनोबलं वर्धिष्यते, वयं च प्रसन्नतामनुभविष्यामः, तथा च भविष्यति काले स्वीयदेशस्य कृते किञ्चित् कर्तुं वयं प्रोत्साहनमपि लप्स्यामहे। धन्यवादः। नमस्ते भावना महोदये, अहं भवत्याः भावनायाः आदरं करोमि। वयं सर्वेपि प्रस्तरेष्टिकाभिः निर्मीयमाणानि गृहाणि भवनानि चावलोकितवन्तः, परं च किं भवन्तः कल्पयितुं शक्नुवन्ति यत् प्रायेण 1200 वर्षेभ्यः प्राक् विशालमेकं पर्वतं यः एकशिलात्मकः एव आसीत् तम् उत्कीर्य उत्कृष्टं विशालम् अद्भुतं च मन्दिरस्वरूपं प्रदत्तम्। स्यात् एतादृशी कल्पना अशक्या प्रतीयते, परं च तत्सञ्जातम्। महाराष्ट्रस्य एलोरा स्थितस्य कैलाशनाथ मन्दिरस्य विषये यदि कश्चन भवन्तं कथयति यत् प्रायेण 1000 वर्षेभ्यः प्राक् ग्रेनाइट इति ग्रावायुतः 60 मीटर मितो लम्बायितः स्तम्भः विनिर्मितः, तथा च तस्योपरि प्रायेण 80 टन भारयुतः शिलाखण्डः स्थापितः, तर्हि किं भवान् विश्वसिष्यति? तमिलनाडु राज्ये तंजावुरे बृहदेश्वर मन्दिरं तत्स्थानमस्ति यत्र स्थापत्यकलायाः अभियांत्रिक्याश्च अविश्वसनीय मेलनम् अवलोकयितुं शक्यते। गुजरातस्य पाटणनगरे 11वीं शताब्दस्य राणीनी वाव इति वापिं दृष्ट्वा सर्वोपि जनः आश्चर्यचकितो भवति। भारतभूमिः अभियांत्रिक्याः प्रयोगशाला अवर्तत। भारते अनेके तादृशाः अभियन्तारः अभूवन् ये अकल्पनीयं कल्पयित्वा तत् साकारीकृतवन्तः। अभियांत्रिकी जगति च चमत्कार रूपाणि उदाहरणानि प्रस्तुतवन्तः। एतेषु महत्तमेषु भारतीयाभियन्त्रिषु भारतरत्नं डॉक्टर एम विश्वेश्वरय्या अन्यतमः अभियन्ता, येन कावेरी नद्याः उपरि कृष्णराज सागर जलावस्तम्भः विनिर्मितः, तस्माच्च साम्प्रतमपि लक्षशो जनाः कृषकाश्च लाभान्विताः भवन्ति। तस्यैव स्मृतौ सेप्टेम्बर मासे 15 दिने अभियांत्रिकी दिवसः आयोज्यते। यदा अहम् अभियांत्रिक्याः चमत्कार विषये ब्रवीमि तदा 1900वें वर्षे गुजराते कच्छ प्रान्ते समापन्न भूकंप विषयिणीं घटनामेकां स्मरामि। तदा अहं स्वयंसेवी रूपेण तत्र कार्यं कुर्वन् आसम्। तत्राहम् एकं ग्रामं यत्र शताधिक वर्षायुष्मती एका मातृचरणा दृष्टा, सा मां दृष्ट्वा उपहसन्तीव मां कथयन्ती प्रतीयते स्म यत् पश्यतु मम लघुगृहं भूकंपत्रयेण संताडितं सत् न किमपि प्रणष्टम्। सा अवदत् यत् गृहमिदम् अस्माकं पूर्वजैः अत्रत्य प्रकृतेः अनुसारं निर्मितम्। यदा वयम् अभियांत्रिकी दिवसम् आयोजयामः तदा अस्माभिः भविष्यद् विषयेऽपि विचारणीयमस्ति। स्थाने स्थाने कार्यशालाः आयोजनीयाः। यदा वयम् अभियांत्रिकी दिवसम् आयोजयामः तदा अस्माभिः भविष्यद् विषयेऽपि विचारणीयमस्ति। स्थाने स्थाने कार्यशालाः आयोजनीयाः। परिवर्तिते युगे अस्माभिः कानि कानि नूतन वस्तूनि शिक्षितव्यानि शिक्षणीयानि च। अद्यत्वे आपदा प्रबन्धनम् हि महत्वाधायि कार्यं जातम्। विश्वं प्राकृतिकापदाभिः साकं संघर्षनिरतं वर्तते। एतादृश्यां स्थितौ स्वरूपात्मिकाभियान्त्रिक्याः नूतनं रूपं कीदृशं भविष्यति, अस्याः पाठ्यक्रमः कीदृशः स्यात्, छात्रेभ्यः किं किं शिक्षणीयं, संरचनात्मक निर्माणं केन प्रकारेण पर्यावरणानुकूलं स्यात्, स्थानिक सामग्र्याः मूल्याकलनं कृत्वा निर्माणं केन प्रकारेण अग्रे सारणीयं, सुतराम् अवकरशून्यता केन प्रकारेण अस्मदीया प्राथमिकता भवेत्। एतादृशाः अनेके बिन्दवः आभियान्त्रिकी दिनावसरे नूनं विचारणीयाः। मम प्रियाः देशवासिनः, उत्सवानां परिवेशः तथा च अमुना साकमेव दीपावल्याः सन्नद्धतापि आरभ्यते। मन की बात प्रसारण व्याजेन सततं मेलिष्यामः, मनसः कथां कुर्वन्तो भविष्यामः तथा च निज मनसा राष्ट्रं अग्रे नेतुमपि सततं प्रयत्नं करिष्यामः। अनया भावनया साकं भवद्भ्यः सर्वेभ्यः शुभकामनाः, धन्यवादाः, पुनः मेलिष्यामः।
अभी आप सुन रहे थे माननीय प्रधानमंत्री श्री नरेंद्र मोदी के मन की बात का संस्कृत अनुवाद। ये कार्यक्रम आकाशवाणी दिल्ली से प्रसारित किया गया।